पुरा मारारतिः पुरमजयत् अम्बस्तवशतैः प्रसन्नायां सत्यां त्वयि तु हि न शैलेन्द्रतनये अतस्ते कामाक्षि स्फुरतु तरसा कालसमये समायाते मातः मम मनसि पादाब्जयुगलं पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां गिरामन्ते भ्रान्तं कृतकरहितानां परिवृडे जनानाम् आनन्दं जननि जनयल्तं प्रणमतां त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् इदं यः कामाक्ष्याः चरणनळिनस्तोत्रशतकं जपे नित्यं भक्त्या निखिलजगदाह्लादजनकं स विश्वेशं वन्द्यः सकलकविलोकैकतिलकः चिरं भुक्त्वा भोगान् परिणमति चिद्रूपकलया।